स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय ते नमः। भज गोविन्दं भज गोविन्दं भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते भज गोविन्दं गोविन्दं भज मूढमते संप्राप्ते सन्निहिते काले संप्राप्ते सन्निहिते काले नहि नहि रक्षति दुःखकरणे नहि नहि रक्षति दुःखकरणे भज गोविन्दं भज गोविन्दं भज मूढ जगीहि धनागमतृष्णा पुरुषद्बुद्धि मनसि वितृष्णा पुरुषद्बुद्धि मनसि वितृष्णा यल्लभसे निज कर्मोपातम् यल्लभसे निज कर्मोपातम् वित्तं तेन विनोदय चित्तम् भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते शक्तः तावनिज परिवारो रतः यावत्पितो पार्जन शक्तः तावनिज परिवारो रतः पश्चा जीवति निमेषात् काल सर्वं मा कुरु धनजन यौवन कर्म हरति निमेषात् काल सर्वं मायामयमिदं अखिलं हित्वा निवासः शय्याभूतलम् अजिनं वासः सुरमन्दिरतरु मूलनिवासः शय्याभूतलम् अजिनं वासः सर्वपरिग्रह भोग सुखं न किञ्चिदधीता भगवद्गीता किञ्चिदधीता गङ्गाजललव कणिकापीता भगवद्गीता किञ्चिदधीता गङ्गाजललव कणिकापीता सकृदपि येन मुरारी सकृदपि येन मुरारी समच सकृदपि येन मुरारी समच क्रियते तस्य यमेन न चर्चा क्रियते तस्य यमेन न चर्चा पुनरपि मरणं पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनं पुनरपि जननी जठरे शयनं इह संसारे बहु दुस्तारे इह संसारे बहु दुस्तारे कृपया पारे पाहि मुरारे कृपया पारे पाहि मुरारे
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज गूढमते
ज्ञेयं गीता नमस्कारं ज्ञेयं श्रीपति रूपमजस्वं ज्ञेयं गीता नमस्कारं ध्येयं श्रीपति रूपमजस्वं ज्ञेयं सज्जन सङ्गे चित्तं ज्ञेयं सज्जन सङ्गे तद सुख लेश सत्यम् अर्थमनर्थं भावय नित्यं नास्ति तत् सुख लेश सत्यम् पुत्रादपि धन भाजं भीतिः पुत्रादपि धन भाजं भीतिः सर्वत्रैषा विहितारीतिः सर्वत्रैषा विहितारीतिः
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज गूढमते
गुरुचरणाम्बुज निर्भर भक्तः संसार चिराद्भवमुक्तः गुरुचरणाम्बुज निर्भर भक्तः संसार चिराद्भवमुक्तः सेन्द्रिय मानस नियम देवं सेन्द्रिय मानस नियम देवं द्रक्षसीनि च हृदयस्थं देवं रक्षसि मे च
హృదయ స్తంభం భజ గోవిందం గోవిందం భజ మూఢమతే భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే